केतकी भगिनी प्रार्थनां वदतु.
आम्. ॐ येनाक्षरसमानायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दौता गिरा पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ शान्ति सर्वेभ्यो नमः. हरिः ओं.
सर्वेषां नमस्कारः. सर्वेषां स्वागतम्. इदानीम् अहं प्रस्तुतिं शेर् करोमि. एकनिमिषम्. दृश्यते वा भगिनि?
आम् आं भगिनि.
आम् एकनिमिषं प्रस्तुति दृश्यते. वयं पूर्वस्मिन् कक्षायां पाणिनीयसूत्राणि षड्विधानि इति वयं सर्वे जानीमः. वयं दृष्टवन्तः. इदानीम् एकवारं पुनः दृष्ट्वा अग्रे गच्छामः. पाणिनीयसूत्राणि षड्विधानि, संज्ञा च परिभाषा च विधिर्नियम एव च अतीतेषु अधिकारश्च षड्विधं सूत्रलक्षणम् इति श्लोकः अस्ति. अत्र एकैकं दृष्ट्वा वयम् अग्रे गच्छामः. प्रथमम् अस्ति संज्ञासूत्रम्. कामत् भगिनी, भवती पठति वा संज्ञासूत्रम् इति किम् इति? अत्र रघुमहोदय भ्राता म्यूट् करोतु कृपया.
पठामि
पठतु.
इदानीं संज्ञा च परिभाषा च विधिनियम एव अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणं संज्ञासूत्रम् येन नामकरणं क्रियते. उदाहरणेन परः सन्निकर्षसंहिता प्रथमाध्याये चतुर्थपादे एकाधिकशतकः व अ इति अपि अस्त्यपि सुप्तिगन्तं पदं प्रथमा अध्याये चतुर्थपादे चतुर्दश सूत्रः सुप् सुगन्तं तिग् सुगन्तं भूवादयो धातवः प्रथमाध्याये तृतीयपादे प्रथमसूत्रः धनाद्यन्ता धातवः तृतीय अध्याये प्रथमपादे द्वित्रिंशत् सूत्रः
सूत्रम् अस्ति. सूत्रम् अतः नपुंसकलिङ्गशब्दः अस्ति भगिनि. सूत्रम् इति वदतु. अस्तु भगिनि, किम् अवगतम्?
संज्ञासूत्रम् इत्युक्ते नामकरणम् इति वयं जानीमः. सन्निकर्षसंहिता
इत्युक्ते किम्?
इत्युक्ते
अस्तु अस्तु अहं वदामि किञ्चित् वदामि. अत्र प्रथमं वयम् एतत् स्वीकुर्मः. सुप्तिगन्तं पदम् इति एकः नामकरणं विषयः अस्ति. तस्य नामकरणम् अस्ति सुप्तिगन्तं पदम्. अत्र उदाहरणं वयं स्वीकुर्मः. राम इति प्रातिपदिकम् अस्ति. राम इति केवलं प्रातिपदिकं. तत्र रामः, रामं, रामेण, एते सर्वे पदाः भवन्ति, पदानि भवन्ति. किमर्थम् इत्युक्ते तत्र सुप्रत्ययाः वयं योजयित्वा पदं कुर्मः. अतः यदा प्रत्ययाः वयं योजयन्ति तदा ते पदं भवन्ति इति तस्य सुप्तिगन्तं पदम्. तस्य ते केवलविषयः अस्ति, ते किमपि न करोति, अतः संज्ञासूत्रं केवलं नामकरणम् अस्ति। ततः परः सन्निकर्षः संहिता, एतदपि एकं सूत्रम् अस्ति। वर्णः इति अस्ति, यदा वकारस्य परे रकारः रेफः अस्ति तथा नकारः अस्ति चेत् नकारः दन्तनकारः प्रथमम् अस्ति, तत् मूर्धन्यनकारः भवति रेफस्य कारणेन। वर्णः किमर्थम् इत्युक्ते संहिता अस्ति, अतिशयेन सामीप्यं यदा अस्ति तदा सन्धिः भवति, वर्णः भवति। अतः एतत् केवलं नामकरणम् अस्ति। तथा एव भूवादयो दयो धातवः, वयं सर्वे जानीमः एतत् केवलं नामकरणम् अस्ति। सनाद्यन्तधातवः, एतत् अपि किमपि नामकरणम् अस्ति। अस्तु, केचन प्रश्नः अस्ति वा? किमपि प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् वयम् अग्रे गच्छामः। मूर्तिभरात द्वितीयबिन्दुं पठति वा?
अस्तु भगिनि, अस्तु। द्वितीयं परिभाषासूत्रं, यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियममिति, अनियमे नियमकारिणी, अनियमे नियमकारिणी
इत्युक्ते किम्? अनियमे नियमकारिणी इत्युक्ते किं महोदय?
इत्युक्ते
अनियमे नियम इत्युक्ते
काञ्चन प्रदेशे युक्तम् अन्ये किं करणीयं न वदति, दत्तस्थाने यः सूत्रं वर्तते
अनियमे, यत्र सूत्रस्य सीमा बहु विशालम् अस्ति, यत्र कुत्रापि सूत्रस्य सीमा बहु विशालम् अस्ति, तत्र परिभाषासूत्रम् आगत्य तस्य सूत्रस्य सीमां सीमितं करोति, तदेव अनियमे नियमकारिणी नियमं करोति। बहु विशालम् अस्ति, तत्र सीमां किञ्चन निर्दिशति, एतदेव तस्य सीमा इति तत्र निर्देशनं करोति। अस्तु, हा, उदाहरणं पठतु महोदय।
यदा सा संख्या मनुदेशः समानं, यदा संख्या मनुदेशः समानं, षष्ठी स्थाने योग, षष्ठी स्थाने योग, तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादि युत्तरस्य
धन्यवादः। अत्र वदतु महोदय, स्थानेन्तरतमः कुत्र आगच्छति, कुत्र आगच्छति, कस्मिन् सन्देहे विषये आगच्छति स्थानेन्तरतमः इति? वयं सर्वे जानीमः,
स्थाने इत्युक्ते
अस्य प्रसङ्गः कुत्र आगच्छति, कुत्र आगच्छति,
निश्चितस्थाने अस्ति, तदनन्तरं यत् कार्यं भवति तत् स्थाने अन्तर्मः कार्यम् इति मन्ये।
यण् सन्धि वयं सर्वे जानीमः, यण् सन्धेः विषये यदा इकः वर्णे अक इक इको यणचि वयं सर्वे जानीमः इकः इकः परे यदि कोऽपि अन्य असवर्णस्वरः आगच्छति चेत् तत्र यण्सन्धिः भवति किन्तु तत्र बहुवर्णाः सन्ति खलु केवलम् ई स्थाने य ऊ स्थाने व इति एतत् निर्देशनं करोति निर्देशं करोति तदेव स्थानेन्तरतमः ई स्थाने य आगच्छतु ऊ स्थाने व आगच्छतु रु स्थाने तत्र निर्देशनं करोति तथा तादृशं यः करोति तत् सूत्रम् अस्ति स्थानेन्तरतमः तथैव यथासङ्ख्यामनुदेशः समानः एचो यवायावः सन्धेहे विषये वयं जानीमः यत्र शब्दसमूहः आगच्छति तत्र यथासङ्ख्यामनुदेशः समानम् एतत् सूत्रम् आगत्य निर्देशनं करोति वयं जानीमः षष्टिस्थानयोगे यदा कुत्र वाक्ये एकस्य पदस्य कुत्रापि सम्बन्धः नास्ति चेत् तत् स्थानं निर्देशनं करोति तत् स्थाने षष्टिस्थाने योगे इति सूत्रे निर्देशनं करोति तस्मिन् यदि निर्दिष्टे पूर्वस्य वयं सर्वे एतत् सर्वे जानीमः तस्मात् उत्तरस्य तदनन्तरं पूर्वं परं सप्तमीविभक्तिकार्यं किं पञ्चमीविभक्तिकार्यं किं वयं सर्वे एतत् सर्वे जानीमः एतत् परिभाषासूत्र एतानि सूत्राणि सर्वे परिभाषासूत्राणि इति वयं वदामः अतः परिभाषासूत्रम् इति तस्य नाम अस्ति अस्तु महोदय बहु समीचीनं चन्द्रप्रभा भगिनी तृतीयबिन्दुं वदति वा
नमो नमः भगिनि
नमस्ते
विधिसूत्रं येन कार्य विधीयते उदाहरणार्थम् अस्ति इको यट् अकः सवर्णे दीर्घः एचो यवा यावः स्थुः सर्वं विधिसूत्रमस्ति येन कार्य सूत्रे किं कार्यं विधीयते निश्चय अहं द्रष्टुं शक्नोमि इको यणचि इकः यण् अचि तदेकं विधिसूत्रम् अस्ति इकः परे यण् अचि चेत् इकः परे यण् अस्ति चेत् अत्र यण्सन्धि भवति उदाहरणमस्ति तत्र अग्रे अस्ति अकः सवर्णे दीर्घः इत्युक्ते अत्र अकः परे सवर्ण अपर अथवा इ पर इ सवर्णे अस्ति चेत् दीर्घः भवति सवर्णदीर्घ इति आगच्छति सवर्णदीर्घसन्धि आगच्छति एको यवा यवः यावः अत्र
एचो यवा यावः एचो
यावः अत्र यान्तमान्तदेशसन्धि तद् पश्यामि अत्र तदपि विधिसूत्रम् अस्ति कार्यविधीयते अत्र एचो यवायवः यावः अत्र यान्तमान्तदेशसन्धि या वा कुत्र आगच्छति तद् अहं विधि पश्यामि अत्र तदनन्तरम् अस्ति स्तोः स्चुना स्चुः तृतीयविभक्ति अत्र पूर्वमपि कार्यं भवति परमपि कार्यं भवति पूर्वकारं कार्यं परनिमित्तं पूर्वनिमित्तं परकार्यम् इति द्वयमपि विधि अहं पश्यामि अत्र
अस्तु अस्तु भगिनि बहु समीचीनं बहु समीचीनं हा विधिसूत्रम् इत्युक्ते येन कार्यं विधीयते येन कार्य भवति विधिसूत्रम् इत्युक्ते कार्यं यत् करोतु मा करोतु इति वदति यः करोतु न करोतु इति येन कार्यं विधीयते एतदेव करणीयम् इति वदति अतः विधिसूत्रम् इको यणचि वयं सर्वे जानीमः इकः स्थाने अचि परे अस्ति चेत् यण् आगच्छतु इति वदम् एतत् कार्यं विधीयते वदति एतत् सूत्रं वदति अतः विधिसूत्रम् अत्र एव कार्यं भवति कार्यं किं सम्भवनीयं तत् अत्र भवति एतेन सूत्रेण विधिसूत्रेण कार्यं भवति अतः विधिसूत्रम् अकः सवर्णे दीर्घः वयं सर्वे जानीमः सवर्णदीर्घसन्धि नियमम् पूर्वपरयोः एकः सवर्णः आगच्छति एचोय वायावः अपि वयं जानीमः स्तोःश्चुनाश्चूः अपि श्चुत्वसन्धेः नियमम् अपि वयं जानीमः एते सर्वे विधिसूत्राणि सन्ति अस्तु किमपि सन्देहः अस्ति वा भगिनि
न भगिनि धन्यवादः
हा धन्यवादः गणेशभ्राता भवान् वदति वा अधिकारसूत्रम् अग्रिमम्
अनुवृत्तिः भवति बहुषु उदाहरणानि संहितायां एकः पूर्वपरयोः इति संहितायां षष्ठ अध्याये प्रथमपादे एक सप्तति सूत्रम् एकः पूर्वपरयोः प्रत्ययः परश्च इति चत्वारः सूत्राणि उदाहरणम्
अधिकार
एते अधिकारसूत्रम् एते अनुवृत्ति अनुवृत्तिः भूत्वा आगमिष्यन्ति यथा सन्धिकार्यस्य सूत्रे संहितायाम् इति भवति अनुवृत्तिः भवति सन्धिकार्यस्य विधिसूत्रं भवति तस्य अधिकारसूत्रं संहितायाम् इति भवति
अधिकारसूत्रम् अस्तु महोदय बहु सूत्र समीचीनम् अस्ति अनुवृत्तिः भवति सम्पूर्णसूत्रस्य यत्र कुत्रापि अनुवृत्तिः भवति तत्र तदेव अधिकारसूत्रम् अत्र अधिकारसूत्रेण काचन उपशीर्षिका उक्तम् अस्ति उप शीर्षिका अत्र उपयोगं किं भवति इत्युक्ते यदा कार्याणि एकादृशानि अस्ति अत्र यत्र कुत्रापि कार्याणि एकादृशानि भवन्ति तत्र एतस्य अधिकारसूत्रस्य उपयोगं भवति उदाहरणं वयं सर्वे दृशामः अत्र संहितायाम् इति अस्ति संहितायां सः पाणिनिमहर्षिः वारं वारं न उपयोगं करोति सर्वेषु सूत्रेषु सः एकमेव सूत्रेण संहितायां यदा सवर्णदीर्घसन्धिः अस्ति गुणसन्धिः अस्ति यण्सन्धिः अस्ति यत्र कुत्रापि संहिता अस्ति वर्णस्य संहिता अस्ति तदा अधिकारसूत्रं कार्यं करोति सः वारं वारं न वक्तुम् इच्छति अतः अधिकारसूत्रम् इत्युक्ते ततः परः तस्मात् परः किञ्चन सूत्रपर्यन्तं तस्य सम्पूर्णसूत्रस्य अनुवृत्तिः भवति तत्र तत् एव अधिकारसूत्रम् एव सवर्णदीर्घसन्धि कृते अपि केवलम् अकः सवर्णे दीर्घः इति पाणिनिमहर्षिः वदति संहितायाम् इति पदं वारं वारं न उपयोगं करोति इको यणचि केवलम् इको यणचि इत्युक्ते वयं किमपि ज्ञातुं न शक्नुमः तत्र संहिता अस्ति चेदेव सन्धिः भवति अतः अधिकारसूत्रं यः तस्मात् षष्ठमध्याये अधिकारसूत्रम् आगच्छति तत्र तस्मात् परः सर्वे तस्य उपयोगः भवति संहितायाम् इति आगत्य कार्यं करोति अतः पाणिनिमहर्षिः तस्य सूत्रस्य एक एव वारं प्रयोगं करोति वदति संहितायाम् इति सूत्रम् अस्ति तदनन्तरं तत्र कुत्र कुत्र तस्य आवश्यकता अस्ति तत्र आगत्य अधिकारसूत्रं तिष्ठति कार्यं करोति इति पाणिनिमहर्षिः सूत्रं लघु कर्तुम् इच्छति अतः अधिकारसूत्रम् इत्युक्ते तस्य अनुवृत्तिः भवति अस्तु महोदय इदानीं वयम् एतत् पर्यन्तं वयं दृष्टवन्तः पूर्वस्मिन् कक्षायाम् इदानीं नियमसूत्रम् इति अग्रे अस्ति कः अस्ति हृषिकेश महोदय भवान् वदति वा नियमसूत्रम् वदतु महोदय
येन पूर्वात् विद्यमानः नियमः सीमितः भवेत् उदाहरणतः रात्रस्य
अत्र षष्ठबिन्दु मा पठतु अत्र अत्र पठतु नियमसूत्रं किञ्चित् उच्चैः वदतु महोदय
प्रत्ययः ताम अन अन सह तम तम व म
किम अवगतम एतावत् पर्यन्तं किम अवगतम
ये प्रत्ययः सन्ति तीन प्रत्ययः
नियमसूत्रम् इत्युक्ते किं महोदय नियमसूत्रं किम् नियमं करोति यस् आम् अर्थः किम् येन पूर्वात् विद्यमानः नियमः अस्ति सीमितः भवेत् एतत् वदति नियमसूत्रं पूर्वे अत्र एकम् उदाहरणम् अत्र दत्तम् अस्ति हलोन्तरायाः संयोगः हलोन्तरायाः हल् इत्युक्ते किं व्यञ्जनानि सर्वे व्यञ्जनानि यत्र संयोगः भवति संयुक्ताक्षराणि इति वयम् अपि वदामः यत्र द्वयोः अथवा तदधिकानां हल् वर्णानाम् अव्यवहितं मेलनं भवति नाम तन्मध्ये अच् वर्णः न आयाति तदा संयोगः युच्युच्यते तत् संज्ञासूत्रम् अस्ति अत्र किम् भवति संयोगान्तस्य लोपः इति एकं सूत्रम् अस्ति तत् वदति कुत्र कुत्र व्यञ्जनानि सन्ति तत्र अन्ते कुत्र व्यञ्जनस्य संयोगः अस्ति द्वयोवर्णाः अथवा तद् अधिकवर्णाः मेलनं भवति तस्य लोपः भवतु इति प्रथमं वदति संयोगान्तस्य लोपः इति वदति उदाहरणम् अत्र दत्तम् अस्ति सर्वे वयं जानीमः पट् धातुः ते पठति पठतः पठन्ति मूलतिङ् प्रत्ययः अस्ति तिप् तस् झि सिप् तस्थ मेप् वस्म किन्तु सिद्ध तिङ् प्रत्ययाः पठति पठतः पठन्ति वयं सर्वे जानीमः इदानीं तद् विषयः नास्ति अत्र संयोगान्तस्य लोपः इत्युक्ते किम् अपठत् लङ्लकारे अपठत् इति भवति अपठत् अपठताम् अपठन् अपठन्त आगच्छतु किन्तु संयोगान्तस्य लोपः इत्युक्ते अतः अत्र अपठन् अपठत् अपठताम् अपठन् इति वयं वदामः सिद्धतिङ् प्रत्ययः अपठन् त तत्र तकारस्य अन्ते किम् अस्ति तस्य लोपः भवति. किमर्थं लोपः भवति? अत्र सूत्रम् अस्ति हलोन्तरायः संयोगः, तस्य लोपः भवतु इति एतत् सूत्रं वदति. अतः अपठन् केवलं भवति, अपठन्त इति न भवति, संयोगान्तस्य लोपः इति तत्र एकं सूत्रम् अस्ति. तत् सूत्रं किं वदति? पदस्य अन्ते वर्णस्य संयोगः अस्ति चेत् तस्य अन्तिमवर्णस्य लोपः भवतु इति वदति. एतत् अनुवृत्ति संयोगान्तस्य पदस्य लोपः, अनुवृत्तिसहितसूत्रं, सम्पूर्ण अधिकारसूत्रम् अस्ति. एतत् आगत्य नियमं करोति. यत्र केवलं पूर्वे किम् उक्तमस्ति, हलोन्तरायः संयोगः इति पूर्वं वदति, मेलनं भवति इति. किन्तु यदा मेलनं भवति तत्र अन्तिम हल् वर्णस्य लोपः भवतु इति संयोगान्तस्य पदस्य लोपः इति अन्यत् एकं सूत्रम् आगत्य वदति. ततः संयोगान्तस्य पदस्य लोपः, एतदेव नियमसूत्रम् अस्ति. यत्र नियमः नास्ति तत्र नियमं करोति. उदाहरणमपि पठतु महोदय, ऋषिकेश महोदय.
अव्यवहितं किम्?
अव्यवहितम् अन्डिस्टर्ब्ड्, तत्र मध्ये स्वरः मा भवतु. वर्णः, वर्णः उदाहरणं स्वीकरोतु. वर्णः अत्र वकारः वयं पश्यन्तः तत्र प्रथममेव एकम् एकनिमिषम् अत्र पश्यतु. व अत्र वर्णः, वर्णः अ नास्ति अत्र, अ नास्ति अत्र, वर्णः, वर्णः र रेफा तत्र उदाहरणं. तत्र अव्यवहितमि इत्युक्ते यत्र कुत्रापि मध्ये स्वरः न आगच्छतु, स्वरः नास्ति, अव्यवहितमेलनं. केवलं हल् वर्णः एव, भक्ति, विभक्ति तत्र पश्यतु. विभक्ति, विभक्तयः क्त क्त क तथा त, तत्र मध्ये स्वरः नास्ति. यत्र कुत्रापि स्वरः नास्ति तदेव अव्यवहितमेलनम्. यदा अव्यवहितमेलनं भवति तत्र संयोगः इति वयं वदामः. तदेव संयुक्ताक्षरम् इति अन्यत् पदम् अस्ति, संयुक्ताक्षरम् इति. यत्र संयुक्ताक्षरम् अस्ति तत्र संयोगान्तस्य पदस्य लोपः, लोपः भवतु इति एकं सूत्रं वदति. अस्तु महोदय, ऋषिकेश महोदय पठतु, यथा उदाहरणं पठतु.
पठ् धातु लङ्कारे बहुवचनं रूपम् अपठन्त.
अत्र पश्यतु, अन्त अन्त इति अस्ति, अन्त इति प्रत्ययः अस्ति, किन्तु तकारस्य लोपः भूत्वा केवलम् अपठन् इति अन्तिमरूपं भवति. सिद्धतिङ् प्रत्ययः जोडयित्वा अपठन् इति भवति, संयोगान्तस्य लोपः. एतत् अस्ति. किन्तु तत्र अन्यत् एकं सूत्रम् अस्ति, रात्सस्य. अस्तु, केत्की भगिनी भवती पठति वा एतत् रात्सस्य?
रास्तस्य अष्टमध्याये द्वितीयपाठे चतुर्विंशति सूत्रमस्ति, पदविच्छेदः अस्ति. रास्य यस्य पदस्य अन्ते संयोगः अस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य एव लोपः भवति, अन्यवर्णस्य न. रात् पञ्चम्यन् सस्य षष्ठ्यन्तं द्विपदी सूत्रं. संयोगन्तस्य लोपः अष्टमे अध्याये द्वितीयपाठे त्रिविंशतितं सूत्रमस्ति इति सूत्रस्य अनुवृत्तिः अस्ति. पदस्य इत्यस्य अधिकारः अस्ति, अनुवृत्तिसहित सूत्रं राज् संयोगान्तस्य पदस्य यस्य लोपः सूत्रवदति यस्य कोऽपि पदस्य अन्ते संयोगः संयोग इत्युक्ते टुगेदर् प्रथमसदस्य रेफा अस्ति चेत् अथवा रेफात् परस्य सकारस्य एव लोपः भवति रेफ अस्ति तस्य परस्य सकार तस्य लोपः भवति अन्यवर्णस्य न राक्षस्य वदति अन्यवर्ण अस्ति तस्य लोपः न भवति परन्तु रेफ अस्ति तस्य लोपः भवति रेफ परस्य सकार अस्ति तस्य लोपः भवति
रेफस्य न
परस्य सकारस्य रात् पञ्चम्यन्तं यस्य षष्ट्यन्तं द्विपदं संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्ति अस्ति संयोगान्तस्य पूर्णतया अनुवृत्ति अस्ति पदस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रम् अस्ति रात् संयोगान्तस्य पदस्य सस्य लोपः भवति
बहु समीचीनं बहु समीचीनम् उक्तवती भगिनी
धन्यवादः
संयो न भगिनी भवत्याः प्रयत्नम् अपि अस्ति पूर्वं किम् उक्तम् अस्ति संयोगान्तस्य पदस्य लोपः यत्र कुत्रापि अन्ते हल् वर्णः अस्ति चेत् द्वयोः हल् वर्णः द्वयोः अथवा अधिकवर्णाः अस्ति चेत् तस्य लोपः भवतु इति वदति किन्तु अत्र राक्षस्य इति एकं सूत्रम् आगत्य वदति यत्र कुत्रापि पदे रेफः अस्ति चेत् तस्य परे सकारः अस्ति चेदेव सकारस्य केवलं लोपः भवतु रेफः अस्ति चेत् केवलसकारस्य एव न अन्यत् वर्णः अस्ति चेत् तस्य लोपः न भवतु इति वदति केवलं रेफस्य एव रेफ अस्ति चेत् सकारस्य एव लोपः भवतु अन्यत् किमपि वर्णस्य लोपः न भवतु इति एतत् सूत्रं राक्षस्य सूत्रम् आगत्य नियमं करोति अतः एतत् नियमसूत्रम् इति वयं वक्तुं शक्नुमः राक्षस्य इति समीचीनं भगिनी धन्यवादः के वि भ्राता उदाहरणं वदति वा कथम् इति अत्र
नमस्कारः यथा उदाहरणमस्ति यथा मृज् धातोः लङ्लकारे प्रथमपुरुषस्य एकवचनरूपम् अमृज् योग तकारः तकार
अमृज
अमृज ध्वनि
रघुमहोदय कृपया म्यूट् मध्ये तिष्ठतु रघुमभ्राता
अहं म्यूट् अस्ति महोदय
न न महोदय
अमृज योगे तकार भवति अमृज अमृज नाट् अमृज 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 अहं वाट् डू काल् इट् सन्धि करोमि अम् योगे रि योगे जि जकार भवति अम् योगे रि गुण भवति आर्
वृद्धि भवति
सारी वृद्धि भवति आर् योगे जि तत् परम् अमा अम् योगे आर् अम् जि अमार्ज भवति रात्सस्य का अमार्ज ज ज भवति टकारः जकारः भवति टकारः रेफस् परे टकारः आयाति किन्तु रात्सस्य रात्सस्य सूत्रेण कारणे कारेण टकारस्य लोपः न भवति अतः अमार्ट् तिष्ठति
बहु समीचीनम् अत्र रकारस्य परे रकार रेफस् रेफ नास्ति ऋकारः अस्ति ऋकारस्य परे जकारः अस्ति सकारः नास्ति अतः तस्य लोपः न भवति अन्यत् सूत्रेण कारणेन जकारः टकारः भवति तत् वयम् अग्रे पश्यामः केवलम् अत्र लोपः न भवति इति उदाहरणं दत्तम् अस्ति अमार्ट इति भवति रेफस्य रकारस्य अनन्तरं ऋकारस्य अनन्तरं जकारः अस्ति सकारः नास्ति अतः तत्र लोपः न भवति इति एकम् उदाहरणं राक्षस्य सूत्रस्य एकम् उदाहरणं दत्तम् अस्ति अस्तु महोदय अग्रिमम् अपि पठतु
उदाहरणं अभवत्
वृद्धिः वृद्धि आर् ऋकारः अस्ति महोदय वृद्धिसन्धेः यदा वयं तस्य अन्यत् सूत्रम् अस्ति वृद्धिः भवतु इति अन्यत् सूत्रम् अस्ति वयम् अग्रे पश्यामः तथापि आर् इति वृद्धिः भवति वृद्धिः भवति महोदय अत्र अर् अस्ति चेत् गुणसन्धिः अन्यत् अन्यत् विषयः अस्ति वयम् अग्रे पश्यामः के वि महोदय अग्रिमम् उदाहरणमपि पठतु
क्षम्यतां
महोदय
हा प्रश्नः अस्ति वा स्वच्छति महोदय
आमाम् उदाहरण एक उदाहरण अम् अधिक आर् धनं अधिक ज ज आर् मध्ये रकार हलन्त सुर्वि
रेफस्य अनन्तरं जकारः अस्ति खलु र रेफः अस्ति खलु महोदय अत्र किम् अस्ति अन्ते आर् इत्युक्ते रे अन्ते किम् अस्ति र रेफः अस्ति खलु आर् आगच्छति रकारस्य स्थाने आर् इति वृद्धिसन्धिः भूत्वा आर् इति आगच्छति आर् यदा आगच्छति तत्र रेफः अस्ति खलु अन्ते रेफस्य अनन्तरं किम् अस्ति जकारः अस्ति सकारः अस्ति वा तत् न राक्षस्य किं वदति सूत्रं रेफस्य अनन्तरं सकारः एव भवतु तदा एव सकारस्य लोपः भवतु इति वदति किन्तु अत्र रेफस्य अनन्तरं जकारः अस्ति खलु जकारः हा अतः तस्य लोपः मा भवतु तस्य विसर्जनं मा भवतु तथैव तिष्ठतु इति एतत् सूत्रं वदति अतः ज एव तिष्ठति किन्तु अग्रे गत्वा तत्र परिवर्तनं भूत्वा ट इति भवति महोदय तदैव अमार् ट इति भवति किन्तु तस्य लोपः न भवति इति उदाहरणं दत्तम् अस्ति अस्तु महोदय
अत्र एकं भ्रम अस्ति
आर् आर् रु आम् मकारस्य परे यदा ऋकारः आगच्छति तस्य परिवर्तनं भूत्वा अन्ते अम् अस्ति खलु अम् मकारः अत्य हलन्तम् अस्ति हलन्तं परे यत्र ऋकारः अस्ति तस्य परिवर्तनं भूत्वा आर् इति भवति आर् भवति अत्र अस्ति केवलं तस्य केवलम् उच्चारणार्थमेव अस्ति महोदय स्वरस्य रेफः अस्ति चेत् रेफस्य अनन्तरं स्वरः अस्ति चेत् तस्य गणना न भवति रेफ एव गणना स्वीकरोतु रेफस्य एव स्वीकरणीयम् रेफस्य एव
स्वीकरोति
हलन्त्यम् इव स्वीकरोतु हा आं महोदय तस्य परे हा तस्य परे जकारः अस्ति अतः हा वद पठतु महोदय केवि महोदय पठतु
पितृ प्रातिपदिकस्य षष्टिविभक्तौ एकवचनरूपम् पितृ योगा ङस् प्रत्ययः अस्ति ङस् षष्टिविभक्ति प्रत्ययः पितृ योगे अस् तिष्ठति तत्परे पित् योगे रि योगे सकारः तत्परे पित् योगे ऋकारस्य उकारः भवति किं कारणेन अहं न जानामि योग सकारः तत्परे पित् योग उर् योग सकार सकारः भवति तत्परे पितुर् पित् योग उर् पितुर्भवति योग सकारः आयाति तत्परे पितुर् सकारः अत्र भवति रेफस्य परे अतः रात्सस्य सूत्रेण द्वारा सकारस्य लोपा भवति सस्य सकारस्य लोपा भवति अतः पितुः अन्तिम पितुः आयाति
बहु समीचीनं महोदय अत्र पश्यतु सर्वे पितृयोगे नस् नस् इति सुबन्तं षष्ठी सुप्रत्ययः अस्ति नस् न नकारस्य लोपः भवति लशकुतद्दिते इति सूत्रेण इदानीं तस्य आवश्यकता नास्ति केवलम् अत्र पश्यतु नकारस्य लोपः भवति अस् इति भवति अस् योगे अस् ऋकारः भवति यदा अस् भवति तत्र ऋकारः आगच्छति अन्यत् सूत्रम् अस्ति तत् सर्वे वयम् अग्रे गच्छामः तस्य आवश्यकता इदानीं नास्ति विसर्गसन्धेः कथं भवति इति तत्र अत्र दत्तम् अस्ति केवलम् अत्र केवलं तत्र पश्यतु पित् योगे उ उत्वं भवति उत्वं तस्य उ योगे स अस्ति सकारः अस्ति यदा उ भवति तत्र पितृ इस् द ऋकारान्तशब्द पितृ इस् द ऋकारान्तशब्द वयं सर्वे जानीमः ऋकारः अस्ति ऋकारस्थे स्थाने उर् आगच्छति यदा उ अस्ति तद् उरणरपरः इति सूत्रेण तस्य उर् इति भवति तत् सूत्रमपि इदानीं मा आवश्यकता नास्ति किन्तु भवन्तः सर्वे पृच्छन्ति इति उक्तम् अस्मि उर् इति भवति यदा उ आगच्छति तस्य उरणरपरः इति एकः सूत्रम् अस्ति तस्य कारणेन उ तस्य स्थाने उर् इति भवति उर् द रेफः अस्ति तदनन्तरं सकारः अस्ति तदा सकार तद् उर् यदा भवति तत् पितुर् इति भवति पितुर् तस्य योगे सकारः अस्ति तस्य सकारस्य लोपः भवति तत्र अन्यत् एकं सूत्रम् अस्ति तत्र रेफस्य खरविसर्जनयोः इति सूत्रम् अस्ति तस्य रेफस्य स्थाने विसर्गः भवति रेफः लोपः भूत्वा तत्र विसर्गः भवति तत्र सकारस्य लोपः पितुरस् इति न भवति पितुः इति भवति षष्टिविभक्तिः पञ्चमी विभक्तिः अपि तथैव पितुः अत्र षष्टिविभक्तिः उदाहरणम् अस्ति पितुः भवति सकारस्य रेफस्य अनन्तरम् अत्र केवलं रेफस्य अनन्तरं यदा सकारः अस्ति तस्य लोपः भवति तदैव रेफस्य अनन्तरम् अन्यत् वर्णः जकारः अस्ति तस्य लोपः न भवति तदैव एवम् अवगच्छतु तथैव अस्ति अवगच्छति वा अवगतं वा सर्वेषां स्पष्टम् अस्ति वा केवलम् अत्र पश्यतु अन्यत् विषयं मास्तु इदानीं केवलं रेफस्य अनन्तरं जकारः अस्ति चेत् तस्य लोपः न भवति रेफस्य अनन्तरं सकारः अस्ति चेत् तस्य लोपः भवति तावदेव रात्सस्य इति सूत्रस्य अर्थः अस्तु महोदय इदानीम् अन्तिम बिन्दुः अस्ति अतिदेशसूत्रम् लक्ष्मी भगिनी भवती पठति वा
नमो
नमः
अतिदेशसूत्र अतिदेशसूत्र येन कस्यचित् सप्तस्य
उच्चैः वदतु भगिनि किञ्चित् मैक् पुरतः आगत्य वदतु
येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत
सेर्ह्यपिच्छ इति एकं सूत्रम् अस्ति एतदेव वदतु स्पष्टं करोतु भगिनि
येन कस्यचित्
स्वभावः शब्दस्वरूपस्य स्वभावः अस्ति अत्र पश्यतु सर् मूलतिङ् प्रत्ययः किम् अस्ति तत् परिवर्तनं न भवति भगिनी किं तिप् सिप् मिप् कुत्र कुत्र प अस्ति तत्र किं भवति गुणकार्यं भवति वयं सर्वे जानीमः पकारः प्रसक्तिः अस्ति तथा प्राप्तिः अपि अस्ति पकारः कुत्र अस्ति अत्र तिङ् मूलतिङ् प्रत्ययः पकारः अस्ति खलु यत्र कुत्रापि पकारः अस्ति तत्र गुणः भवतु इति मूल नियमः अस्ति केवलम् अत्र आतिदेशसूत्रम् आगत्य किं वदति कुत्र सिप् अस्ति अत्र गुणः न भवतु स्वभावः परिवर्तेत् इति वदति मूले किम् आसीत् कुत्र सिप् अस्ति पकारः अस्ति खलु पकारः कुत्र अस्ति तत्र गुणः भवति वयं सर्वे जानीमः शप् विकरणप्रत्ययः विकरणप्रत्ययः अस्ति चेत् गुणः भवतु इति वयं सर्वे जानीमः किन्तु आतिदेशसूत्रं किं वदति कुत्र गुणः भवति तत् न भवतु स्वभावः परिवर्तेत् उदाहरणार्थं सेर्ह्यपिच्च इति एकं सूत्रम् अस्ति तत् कारणेन अत्र गुणः मध्यमपुरुषस्य गुणः न भवति उदाहरणम् अत्र दत्तम् अस्ति वयं पठामः इदानीं हा अत्र पश्यतु लोट्लकारे किं भवति इति अत्र दत्तम् अस्तु एकवारम् एतदेव पठतु भगिनि अस्मिन्
अतिदेशसूत्रम् अस्मिन् मूल तिङ् प्रत्ययाः तिप् तस् नि सिप् थस् लटिसिथ तिङ् प्रत्ययाः तितः अन्ति सितः थ मि वः मा लोटि लोटिसिद्ध तिङ् प्रत्ययाः तु आम् अन्तु हि तं त आनि आव आम
आम अत्र तु ताम् अन्तु अत्र गुणः न भवतु तदेव आतिदेशसूत्रम् अस्ति अस्तु भगिनि इदानीम् उदाहरणं दत्तम् अस्ति तत् धन्यवादः भगिनि अग्रे पीवीएस् कुमार महोदय भवान् पठतु शक् धातोः रूपाणि कुमार भ्राता पठति वा अस्तु रघुचक्रवर्ती महोदय भवान् पठतु
आं महोदय उदाहरणः शक् धातोः रूपाणि लटि शक् योजः नु योजनेति शक् न उ
सि
शक् न ओ ति शक्नोति गुणकार्य उकारस्य ओकारः भवति शक्नोति शक् योजने नु योजने सि शक् न उ सि शक् न ओ सि शक्नोषि गुणकार्यं शक् योजने नु योजने तः शक् न उ तः शक्नुतः गुणकार्यं न
अत्र पश्यतु महोदय किं दत्तम् अस्ति गुणकार्यम् इत्युक्ते गुणकार्यं भवति लट् लकारस्य केवलं प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनम् उत्तमपुरुष एकवचनस्य उदाहरणं दत्तम् अस्ति अत्र सर्वे पकारः अस्ति अतः गुणकार्यं भवति शक्नोति शक् योग नु योगति शक्नोति क नु आगच्छति अतः उ गुणकार्यं भूत्वा ओ भवति गुणकार्यः भवति शक्नोति किन्तु तः अस्ति केवलं मध्य प्रथम पुरुषे द्विवचने किम् अस्ति तः अस्ति तत्र पकारः नास्ति अतः गुणकार्यं न भवति शक्नुतः शक्नुतः एव केवलं शक्नुतः एव केवलं भवति गुणकार्यं न भवति अत्र इति दत्तम् अस्ति अवगतं खलु किमर्थम् अत्र गुणकार्यं भवति शक्नोति इति किमर्थं वदतु महोदय किमर्थं गुणकार हा गुणकार्यम् अभवत् अत्र शक्नोति इति किमर्थम् अभवत् कः वदति किमर्थं शक्नोति इति अभवत् किमर्थं वदतु
महोदय अत्र किमस्ति विकल्प अस्ति सब् विकल्पो नास्ति अत्र
मूले किम् अस्ति पकार तिप् अस्ति प प अस्ति खलु
पकार संज्ञा अभवत् तत्कारणे
किन्तु किमर्थं न भवति अत्र शक्नुतः इति केवलं तथैव तिष्ठति किमर्थम्
अत्र किम् अत्र प्रथमपुरुषः द्विवचनम् अस्ति तत्र प्रकारः नास्ति सकारः अस्ति प्रकारः नास्ति कारणे गुण भवति अन्यथा न भवति
समीचीनं महोदय बहु समीचीनम् अस्तु इव इदानीं सत्यजित् महोदय भवान् पठति वा अग्रिमम् उदाहरणं सत्यजित् महोदय अस्तु सीमन्तिनी भगिनी भवती पठतु लोट् लकारे किं भवति लोटी किं भवति सत्यजित् महोदय अस्ति वा भवान् अस्ति वा पठति वा
अस्ति अस्ति कम्प्यूटर्
अस्मि अस्मि पठतु महोदय पठतु लोट् लकारे किं भवति
लोटि लोटि शक् योगे नु योगे तु अग्रे शक् योगे नकार योगे उकार योगे तु अग्रे शक् योगे नकार अत्र गुणकार्यम् अभवत् उ स्थाने ओ आगता धनं योगे तु शक्नोति अग्रे शक् योगे नु योगे हि शक् योगे नकार योगे उकार योगे हि शक्नुहि अत्र उन कार्य न अभवत् अग्रे शक योगे नु योगे ताम अग्रे शक योगे नकार योगे उकार योगे ताम नुताम अत्र अपि गुण कार्यं न अभवत्
क्या कि वदति वा स्पष्टं करोति वा
अत्र गुण कार्यं
अत्र मूलतिङ् प्रत्ययः किम् अस्ति महोदय तत् किमपि परिवर्तनं न भवति तत् तथैव तिष्ठति अतः किं वद भवति अत्र शक् लोट् लकारे प्रत्ययः परिवर्तनं भूत्वा तिप् गत्वा परिवर्तनं भूत्वा तु इति आगच्छति शक्नोतु गुणकार्यं भवति अत्र शक्नोतु इति भवति किमर्थम् इत्युक्ते तत्र पपकारः अस्ति प्राप्तिः अपि अस्ति गुणकार्यस्य प्राप्तिः अस्ति अतः शक्नोतु इति गुणकार्यं भवति किन्तु आतिदेशसूत्रम् अस्ति खलु अत्र किं वदति मध्यमपुरुषे सिप् अस्ति चेत् तत्र तस्य गुणकार्यं मा भवतु इति वदति अतः अत्र सिप् अस्ति पकारः अस्ति किन्तु तस्य गुणकार्यं मा भवतु इति वदति हि इति शक्नुहि तथैव तिष्ठतु इति किं वदति आतिदेशसूत्रं वदति अतः तत्र गुणकार्यं न भवति केवलं शक्नुषि शक्नुहि इति एव तिष्ठति तथैव ताम् ताम् अत्र अपि पकारः एव नास्ति एव अतः गुणकार्यस्य एव चिन्ता एव नास्ति अतः शक्नुताम् इति भवति गुणकार्यं न भवति केवलम् अत्र शक्नु शक्नोतु अत्र तत्र पकारः अस्ति अतः तत्र गुणकार्यं भवति अस्तु महोदय स्पष्टम् अवगतं खलु
मध्यमपुरुषे किं कारणे
अत्र सूत्रं पाणिनी एव उक्तमस्ति खलु आतिदेशसूत्रं स दत्तम् उक्तं पाणिनी एव उक्तम् अस्ति लोट् लकारे मध्यमपुरुषे पकारः अस्ति चेत् अपि गुणकार्यं न भवतु इति उक्तम् अस्ति पाणिनी महर्षि पाणिनी महर्षि पाणिनी अतिदेशसूत्रम् इति तत् किं वदति तदेव आतिदेशसूत्रं किं भवतु सूत्रम् अस्ति केवलं नियमम् अस्ति तत्र नियमं न करोतु तस्य नियमस्य उपयोगं मा करोतु तथैव तिष्ठतु तदेव आतिदेशसूत्रं पाणिनिमहर्षिः किं वदति तत् वेदतुल्यं वाक्यं पाणिनिमहर्षे वाक्यं वेदतुल्यम् अस्ति मा इति प्रश्नं वयमपि न अवगच्छामः केवलं तत्र गुणकार्यं लोट् लकारे गुणकार्यं न भवतो इति पाणिनिमहर्षिः उक्तवान् अतः आतिदेशसूत्रम् इति वयं वदामः तथैव तस्य कारणेन
आतिदेशसूत्रं तु अस्ति लेकिन् सूत्रे सूत्रस्य नाम किम् अत्र लोट् लकारे न भवति
न आतिदेश किं सूत्रस्य नाम किमपि नास्ति तत् एतत् सूत्रं वदति तस्य परिवर्तनं न भवतु इति केवलं तदैव वदति तदैव वदति एतत् किमपि न वदति सूत्रम् एतस्य का पाणिनिमहर्षिः उक्तवान् लोट् लकारे गुणकार्यं मा भवतु इति सः उक्तवान् तथैव तावदेव स्पष्टमस्ति खलु किमपि प्रश्नः अस्ति वा
कृपया अतिदेशसूत्रं किम्
एकवारं वदामि वा मूलतिङ् प्रत्ययः किम् अस्ति सत्यजित् भ्राता अत्र सिप् सिप् मिप् अस्ति खलु कुत्र कुत्र पकारः अस्ति तत्र गुणकार्यं भवतु वयं जानीमः शप् प्रकरणे तत्र विकरणप्रत्ययः वयं सर्वे जानीमः खलु कुत्र कुत्र पकारः अस्ति तत्र गुणकार्यं भवतु किन्तु अत्र अतिदेशसूत्रं किं वदति? आगत्य मध्यमपुरुषे लोट् लकारे गुणकार्यं मा भवतु इति सूचनां ददाति, तदेव आतिदेशसूत्रम्। किमर्थम्? अत्रापि गुणकार्यं भवतु खलु, शक्नोहि इति भवतु, किन्तु शक्नुहि इति एव तावदेव तिष्ठति, गुणकार्यं न करोतु इति वदति। किं वदति? तत् किं वदति पाणिनिमहर्षिः किं वदति, तस्य नाम अस्ति अतिदेशसूत्रं, तावदेव। लोट् लकारे मध्यमपुरुषे गुणकार्यं न भवतु इति किं वदति? तत् आतिदेशसूत्रम्। इदानीं प्रथमं किम् आसीत् अत्र? शब्दस्वरूप एलकस्य शब्दस्वरूपस्य स्वभावः परिवर्तेत्, तदेव आतिदेशसूत्रम्। प्रथमं किम् आसीत्? गुणकार्यं भवतु इति तस्य स्वभावः आसीत्, पकारः अस्ति अतः तस्य गुणकार्यं भवतु इति तस्य स्वभावः आसीत्, किन्तु आतिदेशसूत्रम् आगत्य किं वदति? तस्य स्वभावः परिवर्तनं न भवतु इति वदति, तदेव आतिदेशसूत्रम्। अस्तु महोदय, अवगतम्? महोदय अवगतं खलु? नियमसूत्रस्य प्रकारमेव अत्र, तदैव तावदेव नियमसूत्रस्य प्रकारम् एकरूपं नियमसूत्रमेव एक अस्ति एकविधया, किन्तु केवलम् अत्र कुत्रापि केवलं वदति लोट् लकार कृते वदति, कुत्र कुत्र केवलं तस्य प्रयोगः भवति तत्र आतिदेशसूत्रम् इति वयं वदामः। अग्रे
आगच्छति मम संशयः अस्ति कि नियमसूत्रे च अतिदेशसूत्रे कः अन्तरः?
नियमसूत्रं किं वदति अत्र वयं पश्यामः। अस्तु महोदय, एकनिमिषं भगिनि, अहं पृच्छामि भवत्याः प्रश्ने अपि पृच्छामि। येन पूर्वात् विद्यमानः सीमितः भवेत्, किम् अवगतम् अत्र? संयोगान्तस्य लोपः इति केवलं वदति खलु, संयोगान्तस्य लोपः बहु विशालमस्ति, यत्र कुत्रापि संयोगः अस्ति चेत् तस्य लोपः भवतु इति वदति, किन्तु नियमसूत्रम् आगत्य किं वदति? केवलं रेफः अस्ति चेत्, तस्य परः सकारः अस्ति चेत् तस्य लोपः भवतु इति नियमं करोति, किन्तु आतिदेशसूत्रं किं करोति? तस्य स्वभावः एवं परिवर्तनं करोति। किम् आसीत्? लोट् लकारे मध्यमपुरुषे गुणः भवतु इति अभवत् पूर्वं, किन्तु आतिदेशसूत्रम् आगत्य वदति तस्य गुणः स्वभावं परिवर्तनं न भवतु इति वदति। नियमसूत्रं केवलम् एकं नियमम् अस्ति, सूत्रम् अस्ति, तस्य नियमस्य सीमिता सीमां सीमितं करोति, तावदेव नियमसूत्रम्। एक बहु बृहत् विशालं सूत्रम् अस्ति, तस्य सीमां नियमं करोति, सीमितं करोति, तावदेव नियमसूत्रम्। आतिदेशसूत्रं तस्य स्वभावः एव परिवर्तनं करोति महोदय। नियमसूत्रं लक्ष्मी भगिनी, भवत्याः प्रश्नः किं? धन्यवादः महोदय। लक्ष्मी भगिनी, कामत् भगिनी का उक्तवती प्रश्नं?
भगिनी अहं प्रश्नम् इच्छामि। सूत्रं वदति एतत् कस्यचित् शब्दस्य स्वभावः परिवर्तते, तु येन वदति लटि लोटि मध्यमपुरुषस्य
अत्य सेव्य पिचसे सकारः कुत्र अस्ति तस्य के कस्यचित् न केवलं कुत्रापि न केवलं सः कुत्र अस्ति, प्रत्ययः कुत्र सकारः अस्ति तस्य परिवर्तनं न भवतु इति सेर्यपिच्च सेर्यपिच्च वयं पठामः। इदानीं पठामः भगिनि अग्रे अस्ति तदैव अस्ति अत्र इदानीं वयं अत्र अस्ति अत्र अस्ति वयं पठामः अस्तु सिमन्तिनी भगिनी अग्रे पठति वा मध्यमपुरुषः
एकनिमिषं लटि मध्ये सिप् अस्ति तर्हि प्रस्तुति अस्ति गुणकार्यस्य परन्तु लोट् मध्ये नास्ति
तावदेव किमर्थम् इति वयम् इदानीं पठामः
आम् मध्यमपुरुषस्य एकवचने मध्यमपुरुषस्य एकवचनस्य मूलप्रत्ययः सिप् सिप् प्रत्यये पकारः इत् सञ्ज्ञकः अतः सिप् प्रत्ययः पित् अस्ति पित् इत्युक्ते पकारः इत् यस्य सः
वयं तावदेव वदतु तावदेव किम् अवगतम् इति वदतु
प्रत्यये पकारः इत् सञ्ज्ञकः अतः सित् प्रत्ययः पित् अस्ति पित्
सद्यकः इत्युक्ते किं भगिनि इत् सद्यकः इत्युक्ते
इत्युक्ते लोपः भवति
इत् सद्यकः इति न संज्ञासूत्रम् अस्ति इत् सद्यकः भवति तदनन्तरं पकारः अस्ति चेत् तस्य लोपः भवतु इति वदति अस्तु
पित् इत्युक्ते पकारः इत् यस्य सः वयं पूर्वं दृष्टवन्तः तिङ्प्रत्ययेषु इत् सञ्ज्ञकः पकारः अस्ति चेत् गुणः भवति
खलु गुणः भवति इति वयं दृष्टवन्तः
गुणः भवति पकार अस्ति चेत् गुणः भवति नास्ति चेत् गुणस्य अवरोधः भवति गुणस्य अवरोधः
भवति
न भवति लोट् लकारे सः प्रत्ययः हि भवति तथापि सः पित् भवति इत्युक्ते हि प्रत्यये परे अपि गुणः भवति स्म
सः परिवर्तनं भूत्वा किं भवति हि भवति किन्तु पित् अस्ति खलु तत्र सिप् अस्ति पकारः अस्ति तत्र गुणस्य कारणम् अस्ति खलु गुणः भवति पठतु अग्रे पठतु
परन्तु हि प्रत्यये परे अपि गुणः भवति स्म तादृशं मा भवेत् तादृशं न भवति तादृशं न भवति हि प्रत्यये परे गुणः भवति स्म परन्तु अत्र न भवति
समीचीनं
यतो हि रूपं शक्नुहि यतो हि रूपं शक्नुहि न तु शक्नोहि गुणः न भवति इत्युक्ते शक्नुहि तिष्ठति तस्मिन् गुणः न दृश्यते तस्मिन् गुणः न भवति अतः गुणस्य निवारणार्थं हि प्रत्ययः अपि भवेत् इत्युक्ते
भवेत्
अपित् भवेत् अपित् अपित् भवेत् इत्युक्ते हि प्रत्यये अपित्वम् अध्यारोपणीयम् इदम् अतिदेशसूत्रेण भवति इत्युक्ते गुणः न भवति पित् भवति इत्युक्ते गुणः न भवति
अपित् भवति अपित् भवति पित् न भवति अपित् भवति अपित् भवतु अध्यारोपणम् आरोपणं करोति गुणस्य अवरोधं करोति तथैव अतिदेशसूत्रम्
अतिदेशसूत्रेण
अवगतं खलु भगिनि अवगतं किमपि प्रश्नः अस्ति वा
किम् अत्र
अध्यारोपणम् तस्य उपरि गुणः न भवतु इति नियमं करोति तावद् तथैव अध्यारोपणम् इम्पोजिशन् करोति न भवतु गुणः न भवतु इति आरोपणं करोति वदति तावदेव वदति इति अस्तु अस्तु अपित् अपित् भवति पित् अस्ति किन्तु तस्य अस्य सूत्रस्य कारणेन अपित् भवति तत् अस्तु सीनामोहन् भगिनी अग्रिमं पठति वा शेर्ह्यपिच
आं भगिनि शेर्ह्यपिच सूत्रसंज्ञा तृतीय
अध्याये
तृतीय अध्याये चतुर्थपादे सप्ताशीति सूत्रम्
अस्ति
सूत्रं पदविच्छेदः सेहे हि अपित् च सेहे हि अपित् च लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति स च हि अपित् भवति
किम् किम् अवगतम् एतावदेव वदतु भगिनि तावत् वदतु किम्
लोट् लगा लोट् लगारे स्थाने सि इत्यस्य स्थाने इत्युक्ते मध्यमपुरुष एकवचनस्य एकवचनस्य सि इति स्थाने इति आदेशं भवति किमर्थमिति आदेशः भवति किमर्थमिति
भवतु इति सूत्रं वदति एतत् सूत्रं वदति आदेशं भवतु इति सूत्रं वदति अतः हि आगच्छति कुत्र कुत्र हि आगच्छति तत् अपित् भवतु इति अपि एतत् सूत्रं वदति अपित् सेः हि अपित् च इति सूत्रं वदति अपित्वम् अध्यारोपितम् अत्र अध्यारोपणम्
अध्यारोपितम् अपित्यम् अध्यारोपितम्
किं भगिनि किं किं भगिनि अपित्वम् अध्यारोपितम्
अध्यारोपितमित्युक्ते
गुणः मा भवतु इति वदति तावदेव गुणः मा भवतु अपित्वं भवतु पित्वं मा भवतु अपित्वं भवतु तावदेव
गुणस्य विरोधं करोति
खलु पित् नास्ति चेत् गुणः न भवति
पित् अस्ति चेत् गुणः भवति अपित् भवतु इति वदति
सेः षष्ट्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् इत्युक्ते सेः षष्ट्यन्तं सेः षष्ट्यन्तं हि प्रथमान्तं
षष्ट्यन्तम् इति वयं जानीमः स्थानी अस्ति षष्टिः अस्ति सूत्रे स्थानी प्रथमान्तं किम् अस्ति
कर्तृवत्
आदेशः भवति हि आगच्छति आदेशः भवति सकारस्य लोपः भूत्वा हि आगच्छति किन्तु यत्र कुत्रापि हि आगच्छति
तत्र प्रथमान्तं
इति अव्ययपदम् अव्यय इत्युक्ते व्ययः न भवति तथैव अव्ययम् अव्ययं मीन्स् न विभक्ति वचन तद् तत्र सदा तथैव तिष्ठति परिवर्तनं न भवति व्ययः न भवति तत्तेव अव्ययम् अस्तु अग्रिमं पठतु भगिनि
लोटो लोटो
लङ्गवत्
लङ्गवत् लङ्गवत् लोटो लङ्गवत् सूत्रसङ्ख्या तृतीयोऽध्याये चतुर्थपादे पञ्चसप्ततिः पञ्चाशीतिः सूत्रम् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लोटो
लङ्
तत्र लोटः लङ् तत्र कुत्र लङ् लङ्लकारे अपि गुणः न भवति तत्रैव इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति एतत् एतत् वयम् अग्रे गच्छ पश्यामः लस्य इत्यस्य इत्यस्य अधिकारः
इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं लोटः लस्य सेः इदम् अधिदेशसूत्रम्
कुत्र यत्र कुत्रापि आदि पूर्वं किम् आसीत् सिप् इति गुणकार्यं भवतु इति सूत्रे अस्तिङ्गसिद्धप्रत्ययः अस्ति किन्तु आदिदेशसूत्रं किम् अस्ति सेह्य पिच्च सेः हि अपित् च इति सूत्रेण तस्य गुणः न भवतु इति वदति तत्तेव आतिदेशसूत्रं तस्य नाम सूत्रस्य नाम आतिदेशसूत्रं सूत्रस्य किम् सूत्रं किम् अस्ति सेर्य पिच्च इति सूत्रम् अस्ति लोट् लकारे मध्यमपुरुषे से स्थाने हि आदेशः भवतु किमर्थं से इति स्थानी अस्ति षष्टिविभक्तिः अस्ति तस्य स्थाने हि आगच्छति किन्तु तत्र पित् अस्ति अतिदेशकारणे सूत्रस्य कारणेन तत्पित् अपित् भवति गुणः न भवति इति तस्य सूत्रस्य अर्थः अवगतम् इति मन्ये इदानीं
किन्तु
महोदय प्रश्नमस्ति वदामि वा
पृच्छतु पृच्छतु पृच्छतु
महोदय अत्र सेहे अस्ति से षष्टिविभक्ति अस्ति कथं जानामि से षष्टिविभक्ति अस्ति
व्याख्यानं दृष्ट्वा एव पाणिनी व्याख्यानं दृष्ट्वा एव पाणिनेः किम् उक्तम् अस्ति तथैव व्याख्यानं दृष्ट्वा वयं जानीमः व्याख्याने दत्तम् अस्ति से
सूत्राणि तु अनेकानि सन्ति तत्र एकनिमिषं महोदय इको यञ्चि इको यञ्चि अत्र सूत्रम् अस्ति इक अस्ति इक अपि षष्टिविभक्ति अस्ति द्वयं जानामि तत् कारणम् अहं पृच्छामि से अत्र अपि षष्टिविभक्ति अस्ति कुत्र जानामि
हरेः इति किम् अस्ति षष्टिविभक्ति अस्ति हरेः इति लङ् तत् व्याख्यानं दृष्ट्वा एव षष्ट्यन्तं सेः इति षष्ट्यन्तम् इति व्याख्याने दत्तम् अस्ति खलु अतः स्थानी भवति
क्षम्यतां महोदय प्रश्नः अस्ति
पृच्छतु महोदय
सिप् प्रत्ययः अकारस्य लोपः पित् कथं
अकारः कुत्र कुत्र भवति इत् संज्ञा भवति इत् संज्ञा भवति तस्य व्याख्याने दत्तम् अस्ति पाणिनिमहर्षि उक्तम् अस्ति शप् कुत्र अस्ति पकारः कुत्र अस्ति कुत्र कुत्र प्रत्ययस्य अन्ते पकारः अस्ति तत्र गुणः भवतु इति पाणिनिः उक्तम् अस्ति
किन्तु प्रत्ययस्य पकारस्य लोपः भवति इत् संज्ञा भवति
अतः
सिप् प्रत्ययः पित् अस्ति कथम्
सिप् इति पकारः अस्ति खलु अत्र तिप् कथं भवति वदतु तिप् इति कथं पकार पित् अस्ति पकारः यदा इत् संज्ञा भवति तदा पित् अस्ति यदा पकारः इत् संज्ञा भवति तत्र पकारः पित् अस्ति इति वयं वदामः
पकारः पित् अस्ति अवगतम्
तत्र कुत्रापि अत्रापि सिप् अस्ति मिप् अपि अस्ति अत्रापि अत्र आनी अत्रापि गुणः न भवति अत्र अपि किं परिवर्तनं भवति कार्याणि भवन्ति अत्र वयम् अग्रे गच्छामः पश्यामः अत्र न दत्तम् अस्ति किमर्थम् आनी पठानी भवति अत्र ओनि पठोनि इति न भवति पठानि इति भवति किमर्थं तत् अग्रे पश्यामः अत्रापि पकारः अस्ति अत्रापि गुणः भवतु किन्तु न भवति किमर्थम् इति वयम् अग्रे पश्यामः महोदय इदानीं भ्रमः मास्तु कुत्र कुत्र पकारः अस्ति तत्र गुणः भवतु इति एव जानीमः तत् तावदेव अवगतम् हा इदानीं बहु आसक्तिविषयः अस्ति केवलं वन् मिनिट् एकं हा केव अभ्यासं वयं कुर्मः इदानीं प्रत्याहाराणां पाणिनिमहर्षेः सूत्राणि सर्वे वयम् अवगतम् इदानीं वयं किञ्चित् अभ्यासं कुर्मः समापयामः शान्ता भगिनी प्रथमं वदति वा अत्र सूत्रं किम् इति वदतु प्रत्याहारः किं किम् अस्ति इति वदतु इदानीं कः वसुधा भगिनी वदति वा शान्ता
भगिनी जलां च करी च संहितायां
जला के के प्रत्याहाराः सन्ति तत्र
जलां प्रत्याहारे जा आन्वर्ड्स् सारे हल् प्रत्याहारः सन्ति हल् वर्णाः सन्ति
के के वर्णाः प्रत्या के का कानि कानि प्रत्याहाराः के के सन्ति कति प्रत्याहाराः सन्ति भगिनी अत्र
प्रत्याहार महेश्वरसूत्राणि तु 14 प्रत्याहार तु
अस्मिन् वाक्ये कति प्रत्याहाराः सन्ति हौ मेनि प्रत्याहाराः साधे
त्रयः प्रत्याहाराः सन्ति चल् चर कर
कर प्रत्याहार बहु समीचीनं बहु समीचीनं जल् प्रत्याहारे के के वर्णा अत्र त्रयः प्रत्याहाराः सन्ति जल् प्रत्याहारे के के वर्णाः आगच्छन्ति
जल् प्रत्याहारे हल् वर्णस्य अनुनासिकवर्णा विहाय वर्णाः सन्ति
न तत्र अन्तस्थवर्णाः य वर् अपि ल अपि न आगच्छन्ति केवलं केवल उष्माणः वर्णाः आगच्छन्ति वर्गेषु वर्गीयव्यञ्जनेषु अनुनासिकवर्णान् विहाय तथा य वर् ल अन्तस्थवर्णान् विहाय सर्वे हल् वर्णाः आगच्छन्ति चर् इत्युक्ते
अस्तु
भगिनि अत्र झलाम् इति वदतु झलाम् इति विभक्तिवचन किम् झलाम् इति विभक्ति
विभक्ति षष्टिविभक्ति षष्टिविभक्ति
समीचीनं भगिनि समीचीनं स्थानं निर्देशति षष्टिविभक्तिः बहुवचनम् अस्ति अस्तु षष्टिस्थाने चर् इत्युक्ते कुत्र आगच्छति
प्रथमा विभक्ति
चर् इति प्रथमा विभक्तिः
वर्णाः वो चर् एकवचनरूपम् एकवचनरूपं न एक प्रथमा विभक्तिः प्रथमा विभक्ति एकवचनम् आदेशः वदति
तर्हि
तर्हि सप्तमी विभक्ति
सप्तमी विभक्तिः एकवचनम्
एकवचनम् निमित्तं निर्दिश्यति
निमित्तं परे अस्ति कार्यं पूर्वं भवति
पूर्वमस्ति
संहितायामपि सप्तमी विभक्तिः
अस्ति
बहु समीचीनं भगिनी बहु समीचीनं द्वितीयं वदति वा द्वितीयबिन्दुं वदति वा
आं माता पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायां
प्रत्याहाराः के के सन्ति अस्मिन् वाक्ये
यर् इति प्रत्याहारः
वेरि उत्तमम् उत्तमम् यर् इत्युक्ते के वर्णः के वर्णाः के वर्णाः आगच्छन्ति यर् इत्युक्ते के वर्णाः भवान् श्लोकं बहु सम्यक् गायति इदानीं वदतु
एते वर्णाः आगच्छन्ति
केवलम् अत्र हकारं हकारं विहाय सर्वे व्यञ्जनानि खलु शिव हकारं विहाय तावदेव वदतु दीर्घं मा वदतु वयमपि पाणिनीयमार्गे एव गच्छन्तु खलु यरः इत्युक्ते हकारं विहाय सर्वाणि व्यञ्जनानि अस्तु यरः इति कस्मिन् विभक्त्याम् अस्ति
यरः इति पञ्चमी
पञ्चमी तथा षष्टि अपि भवति किन्तु के पञ्चमी अस्ति वा षष्टि अस्ति अत्र पूर्वं किम् अस्ति अत्र पश्यतु पदान्तस्य तस्य पश्यतु तद् निर्देशं करोति पञ्चष्टि अस्ति इति यरः इति षष्टिः अनुनासिकः अनुनासिकः अनुनासिकः
अनुनासिकः पञ्चमी एकवचनम्
अनुनासिके अनुनासिकः पदान्तस्य यरः अस्ति चेत् अनुनासिकः प्रथमा विभक्तिः एकवचनम् अस्ति अनुनासिके इति सप्तमी विभक्तिः एकवचनम् अस्ति संहितायामपि सप्तमी विभक्तिः एकवचनम् अस्ति अस्तु शिव सौम्या भगिनी तृतीयं पठति वा
आम् तृतीयमी अस्ति पदान्तस्य यरः अनुनासिक पदान्तस्य पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्
अत्र तृतीयबिन्दुः पठतु भगिनी तत् शिवा पठितवान्
क्षम्यताम् अत्र सम्पर्कः सम्यक् नास्ति भगिनी वृष्टिः सम्यक् न श्रूयते स्तोष्टु नाष्टुः संहितायाम्
अत्र प्रत्याहारः अस्ति वा अत्र प्रत्याहारः अस्ति वा
स्तो स्तः
कुत्र प्रत्याहारः कुत्र अस्ति कुत्र प्रत्याहारः
नास्ति अत्र
अत्र अस्मिन् वाक्ये प्रत्याहारः
न दृश्यते अत्र नास्ति
स्तोः इत्युक्ते विभक्ति
सकारः तवर्गः
विभक्ति किं विभक्ति विभक्ति का विभक्ति अस्ति
अत्र सकारः तवर्ग इत्यत्र पूर्वनिमित्तं किल तृतीया विभक्तिः तृतीया
न न भगिनी स्टुना इति तृतीया विभक्तिः अस्ति षष्टिविभक्ति एव स्थाने भवति तकारस्य स्थाने अथवा तकारस्य स्थाने
षष्टि विभक्ति तृतीया विभक्ति स्तुना तृतीया विभक्त्यां भवति स्तुः प्रथमा विभक्तिः
आम् भगिनि
भवति
स्तोः इति षष्टि विभक्तिः अस्ति सप्त स्थानी भवति स्तुः इति आदेशः भवति स्तु स्तोः इति प्रषष्टिविभक्तिः द्विवचने अस्ति स्तोः इति सकारतवर्गस्य तु इत्युक्ते के वर्णाः के वर्णाः स्तोः इति
तु इत्युक्ते तवर्गाः तवर्ग
तत त ध द ध द ध न त त द ध न इति सर्वे
संहितायाम् संहितायाम् अनुवृत्तिः
अनुवृत्तिः भवति का विभक्ति का अनुवृत्तिः संहितायामपि संहितायां सप्तमी विभक्तिः एकवचने अस्ति अस्तु श्रीविद्या भगिनी शीघ्रं शीघ्रं करोतु समयः अभवत्
अद्यात् अन्त्यात् अलः पूर्वः उपधा अन्त्यात् अलः इत्युक्ते सर्वे वर्णाः स्वरः व्यञ्जनः सर्वे वर्णाः
व्यञ्जन सर्वे वर्णाः
सर्वे वर्णाः पूर्वः उपधा उपधा इत्युक्ते भगिनि न जानामि भगिनि
न जानाति अस्तु
अन्तिमवर्णस्य पूर्ववर्णं भगिनि
एकनिमिषम् एकनिमिषं सुधा भगिनी वदति वा सुधा भगिनी जानाति वा सुधा मेहता भगिनी सुधा श्रीनिवासन् भगिनी सुधा अलः इति अलः इत्युक्ते का विभक्तिः भगिनि
अलः इति पञ्चम एक
अलः पूर्वः उपधा
अलः पूर्व उपधा उपधा अपि प्रथमा विभक्तिः एकवचन एव अस्ति पूर्वः अपि प्रथमा विभक्ति एकवचने एव
प्रथम एकवचनम्
अन्त्यात् अलः इति किमर्थं पञ्चमी विभक्ति इत्युक्ते अन्त्यात् तकारः अस्ति अन्त्यात् अन्त्यात् पञ्चमी विभक्तिः
एकवचनम्
अतः अलः अपि पञ्चमी विभक्तिः एव अस्ति इति वयं जानीमः पञ्चमी विभक्ति अस्ति इति उपधा उपधा इति सूत्रस्य अन्तिमवर्णस्य पूर्वः किम् अस्ति तत् उपधा अस्ति एतत् सूत्रं वदति अन्तिमवर्णे किम् अस्ति तस्य पूर्वः किं वर्णः अस्ति उपधा तस्य नाम अस्ति उपधा इति एतत् सूत्रं वदति अस्तु युगल् महोदय भवान् वदति वा षडु पञ्चम पञ्चम
अत्र महोदय पूर्वतः एकवचनम् अस्ति न
पूर्वः एकवचनं महोदय
उपधा अपि मत एकवचनम् अस्ति
अपूर्वः उपधा अपि पूर्व प्रथम एकवचनमेव अस्ति एकवचने अस्ति अलः इत्युक्ते पञ्चमी अस्ति अत्र अल
अन्त्यात् अस्ति
अन्त्यात् अस्ति इत्युक्ते सर्वे ददामि अवकाशं ददामि भगिनि वदतु भवान् भवती अपि वदतु एकनिमिषं भगिनि एकनिमिषं भगिनि भवतु वदतु महोदय युगल् महोदय वदतु पठतु
अत्र षष्टी विभक्ति अस्ति न द्विवचने
षष्टि विभक्ति अस्ति चेत् किं भवति स्थानी भवति
स्थानी भवति कः अस्ति क एकवचन एक प्रथम विभक्ति एकवचनम्
आम् आम् महोदय
और् सी सी अत्र सप्तमी विभक्ति एकवचनम् अस्ति निमित्तमस्ति निमित्तमस्ति
किं वदति षट् षकारः एतत् सूत्रं वदति षकारः ढकारस्य स्थाने ककारः आदेशः भवति इति एतत् सूत्रं वदति. एतत् सर्वे वयम् अग्रे पश्यामः. केवलं भवतः ज्ञानार्थम् अहं वदन् अस्मि. षकारस्य ढकारस्य स्थाने सि परे अस्ति चेत् ककारः आदेशः भवति. तावदेव अस्य सूत्रस्य अर्थः. षडोः इति षष्टिस्थानी भवति, ककारः आदेशः भवति, सि इति सप्तमी विभक्ति निमित्तं परे अस्ति, कार्यं पूर्वं भवति. हा सुधा भगिनी भवत् पठतु.
आं भगिनि, दात्वादेशे नः नः उपदेशे. दात्वादेः इति षष्टि एकवचनमस्ति, नः इति अपि षष्टि एकवचनमस्ति, नः इति प्रथमविभक्ति एकवचनमस्ति, उपदेशे इति सप्तमी एकवचनमस्ति. अत्र धातोः आदौ उपदेश औपदेशिकरूपे धातोः आदे यः नकारः अस्ति तत् नकारः भवति.
अत्र धात्वादेः उक्तं समीचीनं. षष्टिविभक्ति नकारः किम् उक्तवती भगिनि? का विभक्तिः? का
मूर्धन्यनकारः वा?
मूर्धन्यनकारस्य विभक्तिः का?
षष्टिविभक्ति.
हा समीचीनं. नकारस्य?
नकारस्य प्रथमविभक्ति एकवचनं.
समीचीनं भगिनि, समीचीनम्. आदेशः भवति धातोः आदेः, धातोः आदेः यत्र कुत्रापि नकारः अस्ति चेत् तत् नकारः भवतु इति वदति, इति एतत् सूत्रं वदति. नकारः इति प्रथम, अत्र नकारः अपि अस्ति, नकारः अस्ति अस्ति, व्याख्यानं दृष्ट्वा वयं वक्तुं शक्नुमः. प्रथमं नकारः मूर्धन्यनकारः किम् अस्ति, तत् षष्टिविभक्ति एकवचने अस्ति. दन्तनकारः किम् अस्ति, तत् प्रथमा विभक्ति एकवचने अस्ति. किमर्थम् इत्युक्ते तत् आदेशः भवति. नकारः षष्टिस्थानी भवति, नकारः आदेशः भवति. अस्तु अस्तु, समय समाप्तं. वयम् इदानीं समापयामः. देवेन्द्रमहोदय नास्ति, कः वदति श्लोकम्? वदतु भगिनी, वदतु.
पूर्णमदं पूर्णमद पूर्णात् पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः.
अस्तु, धन्यवादाः सर्वेषां कृते. धन्यवादाः.
धन्यवादः. भगिनी, ये करपत्रं प्रेषयामि. धन्यवादः.
सर्वे गृहपाठं कृत्वा आगच्छन्तु सर्वे अग्रे. मम
Which book do we follow?
तथा नास्ति, सर्वे दृष्ट्वा अहं प्रेषयामि.
बुक् ओके.
बुक् बुक् नास्ति तत्र. स्वरूप महोदयेन किं लिखितम् अस्ति तदेव.
सुकरपत्रमध्ये
करपत्रमध्ये सूत्रस्य विवरणम् अस्ति
वा? अस्ति 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 भगिनि, अस्ति.
कः प्रत्ययः, विभक्तिः, सर्वमपि अस्ति वा?
अस्ति अस्ति अस्ति.
धन्यवादः भगिनि.
धन्यवादः.
गुड्
धन्यवादः.
प्रभातं माता.
शुभदिनं भगिनि.